ॐ गणेशाय नमः। ॐ वागर्ताविव संप्रक्तौ वागर्तप्रतिपत्तये जगदः पितरौ वन्दे पार्वतीपरमेश्वरौ। ॐ येनाक्षरसमाम्नायम् अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। ॐ सहनावतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावतीतमस्तु मा विद्विषावहै। ॐ शान्ति शान्ति शान्तिः। ॐ ब्रह्मानन्दं परमसुखदं केवलं ज्ञानमूर्तिं द्वन्द्वातीतं गगनसदृशं तत्त्वमस्यादिलक्ष्यम् एकं नित्यं विमलम् अचलं सर्वदी साक्षिभूतं भावातीतं त्रिगुणरहितं सद्गुरुं तं नमामि। सदाशिवसमारम्भां शङ्कराचार्यमध्यमाम् अस्मदाचार्यपर्यन्तां वन्दे गुरुपरम्पराम्। हरिः ॐ श्रीगुरुभ्यो नमः। हरिः ॐ।
धन्यवादः भगिनी।
धन्यवादः भगिनी।
अस्तु, अद्य भवत्याः वाक्यानि एकवारं पुनः दृष्ट्वा अहम् यदि मन्ये भगिनि ते समीचीनमेव वाक्यानि, भवत्याः वाक्यानि समीचीनं, किञ्चित् मम मनसि क्लिष्टजायते किन्तु यत् वयं इत्युक्ते एकवारं पुनः दृष्ट्वा एकनिमेष
यावत्
इति विषये एव एकवारम् अस्तु, यावत् शीघ्रं शक्यते तावत् अहं भारतदेशं गन्तुम् इच्छामि। अत्र किम् अभवत्, किमर्थं किञ्चित् क्लिष्ट भवति मनसि, अत्र शक्यते अस्ति, शक्यते कीदृशपदं जानाति वा?
शक्यते आत्मनेपदी रूपम् अस्ति भगिनि।
अस्तु, उभयपदी शक् शक्यते, यक् मध्ये यक् आयाति, कर्तरी लट् अस्ति आत्मनेपदी, तत्तु समीचीनं, किन्तु अत्र कर्तृपदं किम्?
अहम्।
यावत् अहं शीघ्रं शक्यते, इत्युक्ते किम्? अत्र यद्यपि आत्मनेपदी अस्ति, आत्मनेपदी किमर्थं यकार आयाति? दिवादि अस्ति, शक्यति, किन्तु शक्यामि अस्ति अत्र, इति तु भवति इति शक्नोमि नास्ति अत्र, पश्यतु एकवारम्।
आम् आम् शक्यामि,
नो न आयाति, मध्ये मध्ये य आयाति अत्र, किन्तु स्वादिगणे इति अहं मन्ये भवति इति चिन्तितवती न भवती, किं चिन्तितवती? शक् कुतः आयाति? स्वादिः आयाति, स्वादिः आयाति चेत् शक्नोति भवति, अपि च अहं शक्नोमि। किमर्थं भवत्याः वाक्ये शक्यते आयाति तत्र? इत्युक्ते
नमस्कार भगिनी, क्षम्यतां भगिनी.
नमस्ते भगिनी, स्वागतं स्वागतम्. अस्तु, अत्र एकवारं पुनः स्मरणार्थं किञ्चित् सुधा भगिन्याः वाक्यानि पठामः भगिनी. अस्तु, अत्र यावत् मया शीघ्रं शक्यते इति भवती उक्तवती चेत् समीचीनम्. अत्र मया शक्यते, किमर्थं मया शक्यते तृतीया किमर्थम् आयाति? शक्यते इति कर्मणि लट् अस्ति. शक्यते कीदृशपदं? कर्मणि लट्. कर्मणि लट् अस्ति चेत् शक् स्वादिगणे अपि कर्मणि लट् अस्ति चेत् शक्यते भवति. किञ्चित् अवगतवती वा
भगिनी? आं भगिनी.
अस्तु, एकवारं लिखामि. मया शक्यते इति कीदृशवाक्यं? कर्मणि लट्. कर्मणि लट् प्रयोगे किमर्थम्? किमर्थं यक् मध्ये यक् आयाति. कर्मणि भवति चेत् कर्तृ, यत् कर्तृपदमस्ति तत् पदं तृतीया भवेत्. इत्युक्ते अहं शक्नोमि, अहं शक्नोमि, अहं शक्नोमि इति तु साधारण लट् अस्ति, वर्तमाने लट्. किन्तु अहं मया भवति शक् धातुतः यत् यक् प्रत्यय आयाति मध्ये, अपि च आत्मनेपदीरूपम् आत्मनेपदी किं रूपं भवति. सर्वदा कर्मणि लट् अस्ति चेत् किं भवति? फार्मुला 3.1.1 भवति. अवगतम्? 3 इत्युक्ते किं?
तृतीया.
हा, तृतीया किं? कर्तृपदं.
कर्तृपदं,
हा, कर्तृ, कर्तृपदम् अपि च कर्मपदम् अपि च क्रियापदम् इति फार्मुला अस्ति. कर्तृतृतीया, कर्म प्रथमा, क्रिया प्रथमा इति भवति चेत् कर्मणि लट् भवति. साधारणवर्तमाने लट् अस्ति चेत् फार्मुला किम्?
1, 2, 1.
अत्र किम् अभवत्? कर्तृ अपि च कर्म अपि च क्रिया.
क्रिया.
भवती कर्मणि लट् प्रयोगः कृतवती तत्र मया शक्यते इति. पश्यतु, यावत् मया शीघ्रं शक्यते तावत् अहं भारतदेशं गन्तुम् इच्छामि. तत्तु समीचीनम्, किन्तु एकमेव वाक्ये भवती कर्मणि अपि च कर्तरि, अत्र तु कर्तरि अस्ति. पश्यतु, प्रथमा, द्वितीया, प्रथमा, हा, 1, 2, 1 अत्र फार्मुला भवति. अत्र 3 नास्ति. अत्र ओमिति 3, 1 अपि नास्ति, किमपि कर्मपदं नास्ति, अपि च केवल कर्मणि. यदा धातुः अकर्मक भवति चेत् अस्ति चेत् किं भवति? भावे प्रयोग, भावे प्रयोग भवति चेत् फार्मूला किम्? त्री वन् तदेव, किमपि कर्मपदं नास्ति तत्र. कर्तृ कर्तृ अपि क्रिया, कर्मपदं नास्ति. किमर्थं नास्ति? अकर्मक. यदि धातुः अकर्मक अस्ति चेत् तदनन्तरं किम् अभवत्? भावे प्रयोगायाति. यथा यथा मया पश्यतु, स्वप् स्वप् कीदृशधातु?
अकर्मक.
अकर्मकधातु. स्वप् कीदृशधातु? अकर्मक अस्ति. अकर्मक अस्ति, किं रूपं किं? स्वपिति, स्वपिषि, स्वपिनी. किन्तु भावे प्रयोग अस्ति चेत् धातु योगः यक् यकार योगः आत्मनेपदी रूपं एण्डिङ्ग् इत्युक्ते किम्?
स्वप्यते,
स्वप्यते इति. इति इत्युक्ते किं? भावे. स्वप्यते मध्ये यक् आयाति, तदनन्तरं ते आयाति. यथा भवती लिखितवती किम्?
यावत् शक्यते.
शक्यते इति भवती लिखितवती. इत्युक्ते भवत्याः, किन्तु शक् कीदृशधातु भगिनि?
शक् सकर्मकधातु एव. अकर्मक.
शक् अकर्मक अस्ति. अकर्मक अस्ति चेत् किम् अभवत्? मया शक्यते कीदृशप्रयोग? भावे प्रयोग इति फार्मुला. त्री वन् कर्मपदं नास्ति. किमर्थम्? अकर्मकधातु. शक् अपि अकर्मकधातु. मया शक्यते, भवत्याः वाक्ये यावत् मया शीघ्रं शक्यते इति भावे अस्ति. तावत् अहं भारतदेशं गन्तुम् इच्छामि इति समीचीनम्. किन्तु भवती, भवत्याः मनसि किम् अभवत् इति अहं न जानामि. इत्युक्ते स्पष्टता भवति वा न वा तदेव अहं किञ्चित् वदामि. यः अधुना अवगतम्?
आं भगिनि, अहं भावे प्रयोग इति न योजयित्वा न योजयामि भगिनि.
न जानाति एव. इत्युक्ते वाक्यं तु समीचीनं, किन्तु बहु बहु किम् अपि अभवत् तत्र. प्रथमभागे भावे प्रयोग, तदनन्तरं कर्तरि लट्. अहम् इच्छामि कर्तरि लट्. अधुना किञ्चित् स्पष्टता जायते?
आं भगिनि. भगिनी एकवारं लेक्सिलोगोस् मध्ये फार्मुला भवती लिखितवती अस्ति.
हा अस्तु अस्तु इति अहं प्रेषितवती भगिनि.
आं भगिनि
वर्गानन्तरम् अहं प्रेषयिष्यामि.
आं भगिनि
इत्युक्ते प्रथमतया तु प्रथम तु सिम्पल् लट् 1-2-1 फार्मुला. कर्तृपदं प्रथम, कर्मपदं द्वितीय, क्रियापदं प्रथम. तदनन्तरं कर्मणि लट् अस्ति चेत् कर्तृपदं तृतीया भवेत्. यथा किम् गम् धातु पश्यतु, गम् धातु भवति चेत् कीदृशधातु?
सकर्मकधातु.
सकर्मकधातु अधुना तु गच्छति भवति, किन्तु कर्मणि लट् कथं भवति? तत्र गम् योगः यक् मध्ये किम् अभवत् तत्र?
यक्
यक् यक् प्रत्यय आयाति. इत्युक्ते मया किम्? मया भारतदेशः पश्यतु, मया भारतदेशः. किमर्थं देशः? वन् अस्ति प्रथमा. गम्यते इति इति कर्मणि लट् अस्ति. किमर्थं कर्मणि लट्? अत्र तु धातुः कीदृशधातु?
सकर्मकधातुः.
सकर्मकधातुः. अवगतम्?
आं भगिनि.
दीपशिखा भगिनी किञ्चित् अवगतं वा?
न भगिनि.
अस्तु.
टु काम्प्लिकेटेड्. ऐ एम लॉस्ट.
कविता भगिनी, कविता भगिनी स्वागतम्. अस्तु
धन्यवादः, नमस्कारः.
नास्ति किन्तु गतवर्गे वयं चर्चितवन्तः, तदेव अहं किञ्चित् वदामि तस्य कृते किमर्थम् इति. समीचीनं वा न वा? अन्य अधुना पश्यतु, यावत् शीघ्रं शक्नोति. अत्र तु सरलमेव, वर्तमाने लट्. यावत् शीघ्रं शक्नोति तावत् शीघ्रम् उत्तरं लिखतु. अत्र कर्तृपदं किम्? यावत् भवती शीघ्रं शक्नोति तावत् शीघ्रम् उत्तरं लिखतु इति तु सरलमेव. किन्तु अत्र किञ्चित् नूतन उपयोग अभवत्.
एक अन्य एक षष्टमवाक्यम् अपि लेखिष्यामि.
इति वा?
न इति न, इति अनन्तरम्.
ओ अनन्तरम् एकम् अन्य. क्षम्यतां क्षम्यताम्. ओहो अहं न दृष्टवती.
अत्र प्रथमवाक्ये अहं यावत् शक्नोमि इति प्रयोगमेव.
धावितवती इति तु समीचीनम्. पठतु एकवारं दीपशिखा भगिनी, पठतु.
अहं यावत् शक्नोमि तावत् वेगेन धावितवती.
समीचीनं वा?
अहं मैं यावत् जितनी जितना हो सके के उतना वेगेन तेज धावित वती
धावितवती कीदृश पदम्
दौड़ी ना हाँ धावितवती तो अहम के साथ धावितवती चलेगा
पठितवती
हाँ पठितवती हाँ धा मैं उतनी मैं जितना हो सके उतना तेज दौड़ी
हाँ
हाँ सर आम अवगतम हाँ
अस्तु अग्रिमं
वाक्य
कविता भगिनी इति वाक्यं पठतु लते
लते भवती इतोपि त्रिंशतिमेषान् यावत् अटति चेत् तावत् वामतः मन्दिरम् ऐ कान्ट् रीड् द वर्ड् द्रक्ष्यति
द्रक्ष्यति
देयर् शुड् बि अ द्रकार द्रक्ष्यति
अस्तु
भवती इतोपि त्रिंशत्
निमेषान्
त्रिंशत् निमेषान्
त्रिंशति अत्र दत्तं भगिनि
त्रिंशति
एक नकार अस्ति
ओ त्रिंशन्निमे अस्तु
त्रिंशन्निमेषन् निमेषान्
डबल् नास्ति वा तत्र
न भगिनि त्रिंशत् निमे
न न त्रिंशत् तकार नकार भवति तदनन्तरं नि पुनः आयाति त्रिंशन्निमेषान् डबल् न भवति अत्र न भगिनि
त्रिंशन् न लेखिष्यामि त्रिंशत् निमेषान्
किन्तु ता अपि नास्ति तत्र अहं किञ्चित् न अवगतम्
I think I made a mistake there, Bhagini.
Patatu, Sudha Bhagini patatu. Patatu, Late.
Late, Bhavati, Itopi, Trimshat, Nimeshan, Yavat, Atati, Che, Tavat, Vamataha, Mandiram, Drakshyati.
Astu. Aduna kima bhavat, Bhavati, Ititu, Prathama. भवती इतोपि त्रिंशत् निमेषान् अटति चेत् अस्तु भवती यावत् अटति चेत् तावत् वामतः भवत्याः वामतः इति अत्र वामतः मन्दिरं द्रक्ष्यति द्रक्ष्यति कीदृशपदं द्रक्ष्यति किमर्थं पश्यति नास्ति
पश्यति इति लट् अस्ति द्रक्ष्यति लृट्
दृश् अत्र अस्ति द्रक्ष्यति अत्र अस्ति द्रक्ष्यति उत्तमम् अस्तु वाक्यं लते लते कीदृशपदं सम्बोधनप्रथमा अधुना फार्मुला किं भवती प्रथमा त्रिंशत् निमेषान् इति तु
कर्मपदम्
टु अटति वन् टु वन् इति तु कर्तरि लट् अस्ति फार्मुला चेत् तावत् वामतः मन्दिरं द्रक्ष्यति अत्र किम् अभवत् भवति अत्र अपि कर्तृपदं भवति एव अस्ति भवति वामतः मन्दिरं द्रक्ष्यति द्रक्ष्यति अपि कीदृश वन् एव वन् टु वन् समीचीनम् अवगतं कविता भगिनी वाक्यं
किञ्चित् भगिनि
अस्तु लघुवाक्यं वदतु सुधा भगिनी
भवती
अटति चेत्
मन्दिरं द्रक्ष्यति.
भवती अटति चेत् मन्दिरं द्रक्ष्यति इति लघुवाक्यम्. इत्युक्ते भवती अटति चेत्, अटति इत्युक्ते उत्तमं, भवती अटति चेत् मन्दिरं द्रक्ष्यति इति अवगतं भगिनि?
चेत् का क्या होगा?
अटति चेत्, वदति चेत्, किं सुधा भगिनी वदतु अर्थः कः? अगर करोगि तो अटति चेत् वदति.
तो फिर इतोपि क्या है? इतोपि
इतोपि इति वदतु सुधा भगिनी.
इतोपि इति अव्ययपदम् अस्ति. Like if you walk for another itopi, like that.
Yeah. Itopi iti api samayaha asti kila.
Like if you walk still, kind of a meaning still.
Itopi yatheshtam samaya asti. Itopi can also mean because. Itopi can also...
Bhagini, can you break it down and discuss, like, it plus api. So it is for this, like when we use it with the apostrophe marks, no quotation marks, that iti. So mera vaise ja raha hai thinking. Kya theek hai?
No. This is not that thinking. This is... Itopi, it's an animation. Itopi. इत् तु अपि इति मन्ये. इत् तु अपि लैक् जस्ट् देर् इस् अ मीनिङ्ग् लैक् जस्ट् देर् इस् अ मीनिङ्ग् लैक् होल्ड् आन् इतोपि कथं वदनीयम् इतोपि कथं वदनीयम् इतोपि एकं पदमेव अस्ति, इत्युक्ते अव्ययपदम् अस्ति भगिनि.
भगिनि, इफ् यु स्क्रोल् डौन् इतोपि लैक् इन् स्पोकन् संस्कृत मध्ये अधोभागे
अव्ययपदम् अस्ति. ब्रेक् डौन् इति मन्ये इत्तु अपि, किन्तु बहुकालानन्तरम् इतोपि इति एव तिष्ठति. स्टिल् इति इतोपि किम्? इतोपि विवरणानि भवतः आवश्यकानि चेत् एतत् चतुरस्रम् अङ्कयतु कृपया. सि देर् इस् नो स्टिल् इन् दिस् इङ्ग्लिश्. इफ् यु वुड् लैक् मोर् इन्फर्मेशन् चेक् दिस् बाक्स् मीन्स् In this, there is an implied, if you still want more information, I mean, already there is information, but you are persisting, there is still some remnants, then itopi is there. इतोपि विवरणानि भवतः. दिस् डिस्क्रिप्शन् स्टिल् भवतः आवश्यकानि चेत् इफ् यु नीड् मोर् किम् इतोपि त्रिंशत् डालराणि ददाति चेत् see if you still there is something like additional going on or some additional clarification going on or some king itopi mama prishtha syute kimapi sthapayitum na shaktavan aham na shaktavan laghu vakyam aham na shaktavan I cannot what mama prishtha syute in my backpack kimapi sthapayitum to add anything I just cannot. There is this sense of I just cannot. Because, so in English you can also use the word because here. Because I cannot fit anymore. So itopi in Sanskrit will have all of these kind of just, still, really. It also has a really in it. Because it emphasizes, you see this itopi here emphasizes. Without this itopi also this sentence makes sense. Mama prishtha syute kimapi sthapitum na shaktavan aham. See, it makes sense, correct? Aham kimapi sthapayitum na shaktavan kutra mama prishtha syute. Why do you need itopi? It's like when we use in English, so many times we use the word like, or we use the word just, or we use the word really, or we use the word so. There's no, the same sentence comes without those meanings, but it adds a slight emphasis, it adds a slight mood. So itopi is one such avyaya padam, bhagini. Itopi bhavan kutrachit gantum ichhati va. The sentence makes sense without that also. Bhavan kutrachit gantum ichhati va. Do you want to go anywhere? But you add itopi, so you still want to go somewhere? Do you really want to go somewhere? Like that. Avagatam bhagini?
आम् धन्यवादः.
तस्य परिचयः इतोपि मम आवश्यकः. हिज् इन्फर्मेशन् ऐ फार् मम आवश्यकः मेरे लिए. फार् मी इट् इस् ऐ नीड् ऐ लैक् टु नो. सी इन् इङ्ग्लिश् देर् इस् ऐ लैक् टु गेट् टु नो हिम् बेटर्. नन् आफ़् दिस् इस् गोयिङ्ग् आन् इन् संस्कृत ग्रामर्. देर् इस् नो लैक् हियर्
भगिनी. सॉरी, अभी इधर उसका परिचय मेरे लिए आवश्यक है, तो ये मेरे लिए इधर चतुर्थी नहीं स्वीकार करेगा.
संप्रदान no, आवश्यक मेरा आवश्यक मेरा 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 जरूरी है. So you know, that's what I'm saying. Sanskrit, you cannot simply just say, oh, why don't they use it like this? That's what yesterday I was saying, that the way, the shaili of Sanskrit has to be honored. The shaili of Sanskrit has to be honored. The tradition that has been used, the way these words have been used, with the meanings they have been used, that has to be honored. It is never allowed that you can create some new shaili just like that, unless you are a very, very great pandit. So Kalidasa, for example, created new usage of certain words that had not been used like that before. But because Kalidasa did that, the greatest, you know, the greatest writer, we honor his thinking. because Panini said this sutra, we honor his thinking. So we go to the greatest master, and if the master veers away from the traditional path, then we understand, because he has the greatest vision. You and I cannot just simply do that, which is what happens in English and Hindi. In English and Hindi, any Tom, Dick and Harry can start a new trend. When any Tom, Dick and Harry starts a new trend, then the language evolves very, very fast. It evolves so fast that even today, well, we do not know the English that was spoken 500 years ago. We can have some idea, we can make some guesses, but we don't talk like that anymore. 1,000 years ago, how was English? Totally different. The word meanings have changed. So what that does is, it makes past English obsolete. All the richness of past English has become obsolete in today's minds, because people do not understand. But any Sanskrit scholar, even the youngest child today, can read our 10,000-year-old texts, and still they'll make sense. The same sense that they intended to make. So you have to understand the Shaili. And how do you do it? By simply reading over and over, spending more and more time. Itopi samaya asti kila. Still there is time, no? Like that. So, yes, we have some sense of logic in our mind. The teacher has, I have taught you a certain sense of logic. Understand. But still, the prayoga has to be kept. And that is the challenge that we face when nobody else speaks Sanskrit. It's a challenge. Which is why I spend about 8 classes a week just listening to Sanskrit, spoken by these amazing teachers. Just listening. So that I try to understand some of the Shaili. Astu. Antima vakyam patatu, Sudha Bhagini. Yavat.
Aam Bhagini. Yavat shikram shakyate tavat mama amba tasyaha pautrau drashtum ishtavati.
Atra kima bhavat?
Atra pratama vakyam. तया यावत् शीघ्रं शक्यते इति प्रयोगः तृतीया
एकं भावे प्रयोगः
आम्
यावत् भावे कीदृशभावे पश्यतु भावे प्रयोगः तृतीया एक अकर्मक अस्ति चेत् शक् शक् कीदृशदातु अकर्मक अस्ति अकर्मक अस्ति चेत् भावे अत्र इति प्रथमभागे भावे प्रयोगः अस्ति किमर्थं शक् अकर्मक अस्ति अपि च कर्तृपदं वदतु
यावत् शीघ्रं यावत् तया शीघ्रं शक्यते तावत् मम अम्बा तस्याः पौत्रौ द्रष्टुम् इष्टवति
तया किम्
तया
तृतीया तया इत्युक्ते कया
अम्बा मम
अम्बया वा
अम्बया
अम्बया समीचीनं वा अम्बा अम्बया इति समीचीनम् तया अम्बया यावत् तया अम्बया शीघ्रं शक्यते तावत् तया अम्बया यावत् मम अम्बया शीघ्रं शक्यते तावत् तस्या न अत्र तु कर्तरी लट् अस्ति अस्तु तावत् सा तस्याः पौत्रौ द्रष्टुम् इष्टवती अत्र कर्तृपदं किम्? सा
का?
सा का? सा मम अम्बा, मम अम्बा तस्याः, कस्याः? अम्बयाः पौत्रौ द्रष्टुम् इष्टवती. उत्तमम्. सो अत्र ट्रान्स्लेशन् किञ्चित् असमीचीनं भगिनी, किमर्थम्?
आं भगिनि,
समीकरोतु. यावत् शीघ्रं शक्यते इति तु नास्ति अत्र. As soon as possible.
As soon as possible. My mom wants to see her grandson as soon as possible.
Tadeva. Uttamam. Astu. Astu. Aduna kim krutavam krutavantaha picha. पुस्तके यथा तथा वयं पठितवन्तः वा? मा अपि पठितवन्तः?
मा न पठितवन्तः भगिनि. यथा तथा इति
अस्तु,
गत सप्ताहे पठितवन्तः
अस्तु. यथा तथा इति
मा हम फ्यूचर टेंस में सीखेंगे.
अस्ति वा?
मतलब के आज अभी. मा इज पास्ट टेंस नो.
अस्तु अस्तु अस्तु.
भगिनी सॉरी, बट आप जिस भी डिवाइस पे है उसका चार्ज बहुत जल्दी डिप्लीट हो रहा है, तो इफ यू वांट कीप ऑन चार्जिंग.
क्षम्यताम भगिनी.
अरे क्षम्यताम की नहीं आवश्यकता है.
अस्तु अस्तु, धन्यवाद. हाँ अस्तु. यथा तथा भवत सर्वे यथा तथा योजयित्वा गृहपाठरूपेण वाक्यानि प्रेषयन्तु. यथा तथा वयं तु पठितवन्तः. यावत् तावत् तु वयं कृतवन्तः. यथा तथा योजयित्वा कृपया गृहपाठरूपेण वाक्यानि प्रेषयन्तु. एकवारं पुनस्मरणार्थं यथा तथा पठतु शीघ्रं. कविता भगिनी आरम्भं करोतु. यथा तथा वाक्यं पठतु. प्रथमवाक्यं यथा सचिन.
यथा सचिन तेंडुलकर क्रीडति तथा अहं न क्रीडामि.
सचिन तेंडुलकर इत्युक्ते नकार हलन्त अस्ति. सचिन
तेंडुलकर
पठतु.
जैसे सचिन तेंदुलकर खेलते हैं वैसा मैं नहीं खेलती.
उत्तमम. अग्रिमम.
यथा भीमसेन जोशी गायति तथा अन्यः न गायति. जैसे भीमसेन जोशी जी गाते हैं वैसा अन्य दूसरा कोई भी नहीं गाता.
उत्तमम. अग्रिमम. दीपशिका भगिनी पठतु.
आम भगिनी. यथा कालिदासः काव्यं लिखितवान् तथा अन्यः न लेखितुम् अशक्नोत्. यथा कालिदासः काव्यं लिखितवान् जैसा कालिदास काव्य लिखते हैं तथा वैसा अन्यः न लिखितवान्.
लिखितवान् तत्तु समीचीनं.
अन्यः न लिखितवान्.
लिखितवान् कीदृशपदम्?
लिखितवान् लिखितवान् भूतकालपदं न. जैसा लिखते थे.
भूतकालार्थक
लिखितवान् भूतकाल लिखितवान् पुल्लिंग पदम.
पुल्लिंग
पदम. हाँ पुल्लिंग पदम.
लिखित प्रत्यय जानाति वा?
हाँ तवतु धातु.
धातु न तवतु
नहीं तवतु प्रत्यय.
उत्तमं
तवतु
धातु योगः तवतु
तवतु
इत्युक्ते पुंलिङ्गं लिङ्गभेदः अस्ति वचनभेदः अस्ति तत्र लिङ्गभेदः अस्ति चेत् स्त्रीलिङ्गम् अस्ति चेत् यथा
स्त्रीलिङ्ग स्त्रीलिङ्ग पठितवती लिखितवती हा लिखितवती लिखितवती लिखितवत्यौ लिखितवत्यः
उत्तमम् उत्तमम् अग्रिमं पठतु दीक्षिका भगिनी
यथा रविवर्मा चित्रं रचितवती रचितवान् यथा रविवर्मा चित्रं रचितवान् तथा वयं न रचितवान्
तथा वयं न रचितुं शक्नुमः
जैसा रविवर्मा चित्र बनाते हैं रचितवान् तथा वैसा हम लोग वयं न नहीं नहीं बना पाते
लिखितवन्तः
लिखितवन्तः
वयं वचनं किं वयं
वयं तु बहुवचनं
लिखितवान्
अच्छा हो हो हा लिखित हा लिखितवन्तः रचितवन्तः
रचितवन्तः
ओ हा रचितवन्तः हा हा क्षम्यतां भगिनि हा
रचितवान्
लिखितवन्तः
उत्तमं सुधा भगिनि
आं भगिनि यथा मम मित्रं गायति तथा अहं गातुं न शक्नोमि
गातुं न शक्नोमि तुमु नयाति न शक्नोमि अपि च अहं न गातुं बहुवचनमस्ति चेत् यथा
यथा मम मित्रं गायति तथा वयं गातुं न शक्नुवन्तः
शक्नुवन्तः अग्रिमं
वयं न शक्नुमः
शक्नुमः तु लट् शक्नुवन्तः इत्युक्ते
शक्नुवन्तः वयं न शक्नुवन्तः समीचीनं नास्ति
भूतकालार्थक शक्नुवान् शक्नुवन्तौ शक्नुवन्तः भूतकालार्थकः पठितवान् पठितवन्तौ पठितवन्तः
वयम् इति प्रयोजनम् अस्ति
हा वयं वयं सर्वे वयम् एकमेव पुल्लिङ्गमस्ति चेत् तत्र भूतकालार्थकः अस्ति चेत् अतः ध्वनि आयाति अस्तु अस्तु अवगतं सुधा भगिनि
आं भगिनि
अग्रिमं पठतु
यथा भवान् पाठयति तथा अन्य कोऽपि अन्य कोऽपि न पाठयति
पाठयति एव तथा अन्य कोऽपि न पाठयति उत्तमम् उत्तमं पापाजी अग्रिमं
पापा का आज कनेक्ट नहीं हो रहा है टैबलेट पता नहीं क्या हो गया
ओ अस्ति वा अस्तु दीक्षिका भगिनी पठतु
यथा सः उपन्यासं करोति
न
लीजिए बाबूजी, ये वाला वाक्य करिए,
हाँ
ये वाला, सह उपन्या यथा सह उपन्यास करोति तथा
अन्य कोपि न शक्नोति।
उत्तमम्। यथा सः उपन्यासं करोति तथा अन्य कोऽपि न
शक्नोति। तथा अन्य न शक्नोति।
न अन्य कोऽपि अन्य कोऽपि न शक्नोति।
न शक्नोति।
उत्तमम्। उत्तमम्। अग्रिमं पठतु बापाजी।
यथा मम अध्यापकः संस्कृतं जानाति तथा अहं
न
जानामि।
तथा
मम अध्यापकः संस्कृतं जानाति तथा अहं न जानामि।
न जानामि। उत्तमम्। उत्तमम्। अस्तु, पुनः स्मरणार्थमेव वयं शीघ्रं पठितवन्तः। अस्तु, अधुना स्म नूतनविषयः अस्ति। स्म, हा स्म, कविता भगिनी पठतु स्म।
स्म सुन्दरेशः बन्धुगृहं गत्वा आगतवान्। सुन्दरेशः पुंलिङ्ग प्रथमाविभक्ति एकवचनरूपम्। बन्धुगृहं द्वितीयविभक्ति एकवचनरूपं। गत्वा आगतवान्, तो आगतवान् ये तो भूतकाल का है कि जाकर आ गया। तो बन्धुगृह क्या होगा? गेस्ट हाउस।
बन्धुगृह गेस्ट हाउस मतलब परिवार के घर में ना, रिश्तेदार के घर से।
अच्छा,
मे बी गेस्ट हाउस, मे बी जस्ट कोई रिश्ते का घर।
गेस्ट हाउस तो अतिथि गृह हो गया।
हाँ, सुंदरेशः बंधुगृहं गत्वा आगतवान्। अग्रिमं पठतु। तत्र
कह कह किं करोति स्म इति स्मः इति सः मातरं वदति। वहां पर क्या क्या, कह कह क्या क्या, किम, वो उसी के अर्थ में ना, क्या क्या कैसे किया शायद
ना। कह कह किम, किसने किसने क्या किया।
अच्छा, कह कह किसने किसने किम क्या करोति किया स्म, करोति स्म मतलब किया, कर रहे थे, पास्ट प्रेजेंट टेंस, पास्ट कंटिन्यूअस टेंस। इति सह मातरम वदति, ये उसकी मम्मी बोलती हैं।
सह मातरम वदति इत्युक्ते
उसकी मम्मी। मातरम का ये द्वितीय विभक्ति का एकवचन रूपम है।
हाँ,
अच्छा, वो उसकी मम्मी को बता रहा है।
हाँ
जी। तो सुंदरेशः फैमिली के किसी मेंबर के घर जाकर आया। वहां पर कौन कौन क्या कर रहा था, वह उसकी मम्मी को बता रहा है।
तदेव। उत्तमम्। पठतु सुधा भगिनी प्रथमा।
आम भगिनी, माता महः ध्यानं करोति स्म।
माता महः इत्युक्ते
नानी मा, मैटर्नल ग्रैंड मामा,
ग्रैंडपा।
ओ यस 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 यस, सॉरी।
माता महः इत्युक्ते नानाजी।
नानाजी।
माता महः ध्यानं करोति स्म। करोति स्म इत्युक्ते कर रहे थे। किमर्थं कर रहे थे, किमर्थं करोति लट् अस्ति, लट् योजयित्वा एव स्म प्रयोगः भवति. भूतकालार्थक अस्ति इत्युक्ते कर् रहे थे तु भूतकालार्थक अस्ति. किमर्थं लङ्लकार नास्ति तत्र? लङ्लकार अपि भवेत् किन्तु लट् लट् योजयित्वा स्म आयाति चेत् भूतकालार्थक भवति. अवगतम्?
आं भगिनि.
अग्रिमं पठतु. मातुलानि
मातुलानि
किं करोति?
मातुलानि पाकं करोति स्म.
मातुलानि पाकं करोति स्म. कुत्र करोति स्म?
मातुलानि पाकशालायां पाकं करोति स्म.
मातुलानि पाकशालायां पाकं करोति स्म. उत्तमम्. अग्रिमं पठतु दीक्षिका भगिनी.
आं भगिनी. मातुलः पूजां करोति स्म.
पूजां करोति स्म. मातुलः पूजां करोति स्म. कुत्र करोति स्म?
कुत्र? कहां पे? पूजा
गृहे.
पूजा गृहे. पूजा घर में. पूजा स्थले. अच्छा. हाँ. पूजा मातुलः पूजा गृहे पूजां करोति स्म.
अग्रिमं
रमा निद्रां करोति स्म.
उत्तमम्. अग्रिमं पठतु पापाजी. सुधा.
सुधा पुस्तकं पठितवान्.
पठति.
करो स्म. स्म यूज करना.
पुस्तकं
पठति.
पठति स्म.
पठति कीदृशरूपं? लट् लट् रूपम् अस्ति चेत् स्म आयाति. यदि भूतकालार्थक वयम् इष्ट सुधा
रमेशः क्रीडाङ्गणे क्रीडा करोति.
क्रीडाङ्गणे क्रीडां करोति स्म. अपि च योगासनं रमेशः. वदतु. रमेशः
क्रीडां करोति
स्म. अपि च योगासनं करोति स्म. उत्तमम्. उत्तमं. कविता भगिनी.
इसमें आपको मदद करनी पड़ेगी. वो झाड़ू कर रही थी तो कैसे कहेंगे?
किम करोति?
सम्मार्जनम.
मार्जनम करोति स्म.
मार्जनम. किमर्थं मार्जनम्? मार्जनम् अत्र पश्यतु. मार्जनम् एकवारं पश्यतु.
Marjani danda is broomstick. So Marjani should be grooming.
Marjanam pashyatu. Marjana. Marjanam karoti. Cleaning, rubbing. Pashyati va Sanskrita, spoken Sanskrit madhye?
ना भगिनी, आप स्क्रीन शेयर कर रहे हैं क्या? नहीं, या देखना है हमें. मैंने ब्रूम डाला है तो उसमें तो नहीं आ रहा है. आपने क्या डाला सर्च? हाँ
अस्तु, अत्र पश्यतु मार्जनम करोति रब क्लीन. मार्जनम करोति, मार्जनम मया करणीयम, सफाई मेरे द्वारा करनी है. मेरे द्वारा सफाई करनी है. अद्य समग्रस्य गृहस्य मार्जनं मया करणीयम्. पूरे घर की सफाई मेरे द्वारा करनी है. मार्जनम् अवगतम्? लीला मार्जनं करोति स्म. अग्रिमम्.
मातामही बालकान् बालकन् बालकम् कैसे सुला रही हैं, सुला रही थी.
किम् कोऽपि अन्य साहाय्यं करोतु.
मातामही बालकं निद्रयति स्म.
निद्रयति स्म, अपि च गायति स्म, अपि च किं कम्फर्ट् पे प्रेति. इंटेंसली प्लीज और टू कंफर्ट. पे प्रेति प्री धातुतः पे प्रेति स्म. पे प्रेति स्म उत्तमम्. अवगतं स्म. अस्तु, स्वस्यैः वाक्यैः किञ्चित् वदतु. स्म योजयित्वा वाक्यं रचयतु सर्वे. सुधा भगिनी आरम्भं करोतु.
आं भगिनी. एकः ग्रामे एकं कृषकः वसति स्म.
एकदा ग्रामे
कृषकः
वसति स्म. अन्य किमपि वदतु, कोऽपि वदतु. दीपशिखा भगिनी.
आम भगिनी. अहं प्रतिदिनं संस्कृतं अहं प्रतिदिनं संस्कृतं पठामि स्म. पठामि स्म नहीं होगा उसमें सह सह प्रतिदिनं संस्कृतं पठितवती स्म
पठति स्म
हाँ सह
प्रतिदिनम् अस्ति चेत् भूतकालार्थः कथं भवति
अच्छा हाँ ओके तो सह संस्कृतं पठति स्म मतलब वह संस्कृत पढ़ती पढ़ती थी हाँ वह संस्कृत पढ़ता था ऐसा है वह
हाँ पठति स्म अपि च सा पठति स्म सा संस्कृतं पठति स्म सा सायंकाले संस्कृतं पठति स्म इत्युक्ते किम्
वह शाम को संस्कृत पढ़ती थी
एंड स्म यत्र कुत्रापि स्म अस्ति चेत् केवल एकवारं किमपि कार्यम् इति भवत् इति आसीत् इति तु न वारं वारं यदि किमपि भवति चेत् स्म योजनीयं समीचीनम् इत्युक्ते कभी एक बार मैंने मान लो दुनिया जीवन में एक बार मैंने गाड़ी चलाई तो यू कैन नॉट से ओ गीता गीता भगिनी कारयानम किम चालयति नो वारं वारं कृतवती चेत् एव स्म आयाति अवगतम
आम भगिनी मतलब वो मतलब प्रतिदिन हम बोलेंगे नहीं पर मतलब ये है कि वैसा वह करते थे
हाँ प्रतिदिनं वा मासे एक दिनं वा किमपि वारं वारं
किमपि अच्छा वारं वारं
किमपि प्रतिदिनं अस्ति आवश्यकम् इति तु न किमपि वारं वारम् इत्युक्ते किं किमपि अभ्यासः अस्ति तत्र एकदृश कीदृश अभ्यासः तु अस्ति तत्र अस्तु कविता भगिनी
सुधा भगिन्याः कथाम् अग्रे एक्स्टेण्डिङ्ग् इट् कृषकः नाम किशनः अस्ति सः आदिनं कृषिकार्यं करोति स्म
आदिनम् इत्युक्ते
पूरा दिन
ओ आदिनं पूरा दिन वा आदिनम् अपि च आदिनम् अन्य अर्थः अपि भवितुम् अर्हति पूरा दिन आज के दिन तक अपि अपि भवितुम् अर्हति तत्र आदिनम् अस्तु सो सः आदिनं पुनः वदतु सः
आदिनं कृषिकार्यं करोति स्म
कृषिकार्यं
वह पूरा दिन फार्मिंग वर्क करते कर रहे थे
हाँ कृषिकार्यं करोति स्म उत्तमं पापाजी करोति स्म किमपि स्म
कृषिकार्यं अब इसके आगे बोलिए कृषि कार्यं करोति स्म सः कृषि कार्यं करोति स्म
भोजनं
करोति स्म
करोति स्म
कृषि कार्यं कृत्वा सः भोजनं करोति स्म उत्तमम् सः भोजनं करोति स्म तदनन्तरं दीक्षिका भगिनी
तदनन्तरं सः निद्रां करोति स्म क्षम्यतां तदनन्तरं सः निद्रां करोति स्म
निद्रां करोति स्म उत्तमम् अस्तु सुधा भगिनी किमपि अन्यवाक्यं
भगिनि कश्चन राजा राज्यं कश्चन राजा राज्यं राज्यं रक्षणं करोति स्म
राज्यरक्षणं
एकमेव पदम्
एकमेव समासः अस्ति कश्चन राजा राज्यरक्षणं करोति स्म तदनन्तरं किं किञ्चित् अभवत् You know, when you say something like that, you are waiting for it to stop, no? इत्युक्ते राजरक्षणं करोति तु किन्तु किञ्चित् कालानन्तरं न शक्यते इति वाक्यं एकः राजा राजरक्षणं करोति स्म कश्चन राजा राजरक्षणं करोति स्म हा अस्तु तदनन्तरं किम् अभवत् कविता भगिनी
नहीं भगिनी ऐ एम स्टिल थिंकिंग इफ समबडी एल्स कैन टेक इट ऑन
अन्य कोऽपि वदतु किम् अभवत्
तदनन्तरं राजा मतलब यह है कि वो एक राजा राज की रक्षा करता था एक राजा राज की रक्षा करता था है ना तो तदनंतरम तस्य पुत्रः उसका पुत्र तदनन्तरं तस्य पुत्रः राजरक्षणं करोति स्म
तदनन्तरं तदनन्तरं राजा एका मतलब उसकी तस्य राण्या साकं वनं भ्रमणार्थं गच्छति स्म
किञ्चित् क्लिष्टजाता तत्र किमर्थं राजरक्षणं करोति स्म राजरक्षणं तु बहु इत्युक्ते बृहत् कार्यम् अस्ति बृहन् कार्यम् अस्ति
हाँ, तो उसके पुत्र को सौंप कर फिर वो जाता था रानी के साथ
जाता था कैसे होगा मतलब
जा रहा था गच्छति स्म मतलब जा रहा था
अस्तु एक वारम जा रहा था वारम वारम जाता था
आम आम भगिनी
इत्युक्ते तदनन्तरं तस्य पुत्रः अपि राजरक्षणं करोति स्म दीपशिका भगिनी अपि अपि इति किञ्चित् समीचीनं भवति वाक्ये. तदनन्तरं
तस्य पुत्रः अपि
अपि वो भी करता था.
हाँ वो भी करता था. हाँ तस्य
अपि राजरक्षणं करोति स्म. यदा पुत्र राजरक्षणं करोति तदा राजा राण्या सह राण्या साकं वने भ्रमणार्थं गच्छति स्म. Now you have made it very clear. Having given up his responsibility, he started to regularly go to the forest with his wife. Kavita Bhagini?
Bhagini, thank you.
Kimartham, Raja Rakshanam to kabhi khatam nahi hota na kaam. So you cannot say tadanantaram. अनलेस यू से उसने अपने पुत्र को सौंपा या उसके बाद कुछ किया. तदनंतरम सुधा भगिनी.
वने वने राजा हरिणः स्वर्णहरिणः द्रक्ष्यति स्म.
अन्वेषणं करोति स्म.
द्रक्ष्यति स्म.
अन्वेषणं करोति स्म. वने पुनः वदतु.
वने राजा एकं एकः स्वर्णहरिणः अन्वेषणं करोति स्म.
तत्र कर्तृपदं किम्?
राजा राजा
राजा. कर्मपदं किम्?
अन्वेषणम्.
अन्वेषणं तु कर्मपदं नास्ति. कस्य अन्वेषणं?
न स्वर्णहरिण स्वर्णहरिणं
हरिणं
हरिणं.
पुनः वदतु.
तत्र राजा एकं स्वर्णहरिणम् अन्वेषणं
वने करोति स्म.
वने करोति स्म. भगिनी एकः प्रश्नः. इफ् वि स्टार्ट् लैक् टेलिङ्ग् इन् द लैक् पास्ट् टेन्स् लैक् करोति स्म इफ् वि यूस् इन् द फस्ट् सेण्टेन्स् सो इन् एव्री कन्सिक्यूटिव् सेण्टेन्स् द स्म शुड् बि यूस्ड्.
नो यु डोण्ट् हेव् टु बट् यु नो स्टोरीस् यूजुवलि विल् नाट् बि लैक् देट् न. स्टोरीस् यूजुवलि विल् टेक् यू इन् टु सम् इण्ट्रेस्टिङ्ग् पात्. Once he did this, no story is something that was done every day. Then that doesn't make the story. So to make a story, this is what used to happen, but then this happened, that becomes a story. Right now we are still in the usual. He gave his kingdom up, then he started to go to the vanam with his wife, and then in the vana he used to look for the golden deer. Then now you can say one day he found it. Then you will not use sma. Uttamam. Astu astu sma. सो स्म इति विषये किञ्चित् स्पष्टता भवति वा?
आं भगिनि.
अस्तु. अधुना दश सप्तनिमेष भवति. वयं शीघ्रं पुटसङ्ख्या 30 तमे पुटे एकवारं पश्यतु. त्रिंशत्तमे पुटे अभ्यासपुस्तके तत्र किम् अभवत्? तं ताम् तत् भवन्तम् अहं कोष्टके पठामि. इत्युक्ते ते सर्वे कर्मपदं सन्ति. तम् एतं कम् ताम् एतां काम् तत् एतत् किम् भवन्तं भवन्ती भवतीं माम्. ते सर्वे कीदृशपदानि? कर्मपदानि. अग्रिमं पुटे एकम् अन्यकोष्टक अस्ति. तत्र किम् अस्ति? पठतु दीक्षिका भगिनी. पुरतः
पृष्ठतः वामतः दक्षिणतः उपरि अधः.
उपरि
अधः.
अग्रिमं पुटे त्रिंशत् पुटे पठतु कविता भगिनी.
33 पे.
अन्तः
अन्तः बहिः
अन्तः बहिः. अपि च अग्रिमपुटे पठतु कविता भगिनी विशेषसूचना.
अत्रतः असमीचीनम्, इतः इति समीचीनम्, तत्रतः असाधु, ततः साधु, कुत्रतः असाधु, कुतः साधु, उपरितः असाधु, उपरिष्टात् साधु.
उपरिष्टात्, तस्य उपरि इतः ततः कुतः तः इतस्ततः अपि अस्ति कोष्टके. इतस्ततः, इतस्ततः इत्युक्ते
इधर् उधर्.
इधर् उधर्, उत्तमम्. इधर् उधर्, उत्तमम्. पापाजी अग्रिमं 35 पुटे कोष्टके किं किं दत्तम्? शीघ्रम्
शीघ्रं मन्दम् उच्चैः शनैः.
शीघ्रं मन्दम् उच्चैः
उच्चैः शनैः.
उत्तमम्, उत्तमम्. सुधा भगिनी अग्रिमं पठतु.
भगिनी कथं सम्यक्, समीचीनम्, उत्तमं, सुन्दरम्.
कथम् इत्युक्ते?
कथम् इत्युक्ते केसे.
केसे. अग्रिमपुटे पठतु सुधा भगिनी. किमर्थम्?
किमर्थम्?
किमर्थम्? किमर्थम् इत्युक्ते
किसके लिए?
किमर्थम् अस्ति चेत् कीदृशविभक्तिरूपं भवति तत्र?
किमर्थम्
अस्ति चेत्
किमर्थम् अस्ति चेत् तृतीया
चतुर्थी भगिनी.
चतुर्थी, चतुर्थी फार् द पर्पस् आफ् हां चतुर्थी.
किमर्थं? पठनार्थं, पठनाय किमपि. उत्तमं. तदनन्तरं किम्? एकनिमे पठतु अग्रिमं पुटे 38.
अष्टत्रिंशत् भूतकालरूपाणि.
रूपाणि, भूतकालरूपाणि. कीदृशभूतकालरूपाणि तत्र?
तवतु प्रत्यय.
तवतु प्रत्यय योजयित्वा भिन्नानि पदानि दत्तानि. उत्तमम्, उत्तमम्. अग्रिमं पठतु कविता भगिनी.
वर्तमानकालः अस्ति, अस्मि, सन्ति, स्मः. भूतकालः आसीत्, आसम्, आसन्, आस्म. तो ये जो स्मः है वो वयम के साथ जाएगा, वो वाला है. और हमने आज जो सीखा वो विसर्ग के बिना है, वो सिर्फ स्म है फॉर पास्ट कंटिन्यूस टेंस.
वो लट के साथ लगता है
जी, तो हमें कंफ्यूज नहीं होना है।
महा अपिचा स्मा भिन्न पदम। महा अस्ति, अस्ति इत्युक्ते सः अस्ति। लघुवाक्यं वदतु।
सः किशनः अस्ति।
द्विवचने
रामौ स्तः।
रामौ स्तः। अग्रिमम्
बालकाः सन्ति।
बालकाः सन्ति। मध्यमपुरुष जानाति वा?
असि तः स्थ।
असि, त्वम् असि,
त्वम् असि, युवां नै, हा युवां, युवां स्थः, यूयं स्थ, अहम् अस्मि, आवां
स्वः,
स्मः, स्वः, वयं स्मः।
उत्तम, वयं स्मः। भूतकाल, भूतकाल पठतु। सः,
सः आसीत्।
तौ,
नहीं नहीं मुझे नहीं आता भगिनी, मैं गड़बड़ कर दूंगी।
हाँ सुधा भगिनी, सः आसीत्।
भगिनी सः आसीत्, तौ आस्ताम्, ते आसन्,
आसन्,
त्वम् आसीः, युवाम् आस्तं, यूयम् आस्त,
आस्त,
अहम् आसम्, आवाम् आस्व, वयम् आस्म,
आस्म। उत्तमम्, उत्तमम्। दीक्षिका भगिनी अग्रिमं पठतु, एकचत्वारिंशत्तमे पुटे।
भविष्यत्कालरूपाणि।
भविष्यत्कालरूपाणि इत्युक्ते
भविष्यत्काल, भविष्यकाल रूपाणि, लट् लकार,
लुट् लकार,
लुट् लकार, लुट् लकार
अस्ति। अग्रिमपुटे पठतु, विशेषरूपाणि।
विशेषरूपाणि, पिबति, पास्यति, ददाति, दास्यति, जानाति, ज्ञास्यति, शृणोति, श्रोयति, लिखति, श्रोष्यति, लिखति, लेखिष्यति, मिलति, मेलिष्यति, पृच्छति, प्रक्षयति, त्यजति, त्यक्षयति, शक्नोति, शक्यति, शक्यति,
शक्ष्यति,
शक्षयति,
शक्ष्यति,
शक्ष्यति, उपविशति, उपवेक्ष्यति, उत्तिष्ठति, उत्थास्यति, ग्रहाति, ग्रहणाति, ग्रहीष्यति।
विशिष्टरूपाणि, विशेषरूपाणि ग्रहीष्यति। उत्तमम्, अस्तु। तो पुनस्मरणार्थं वयं किञ्चित् पठितवन्तः। अस्तु, धन्यवादः, विरमामः। अग्रिमसप्ताहे पुनर्मिलामः। एकवारं यथा तथा अपि च स्म योजयित्वा वाक्यानि प्रेषयन्तु। धन्यवादः सर्वेभ्यः।
धन्यवादः, नमस्कारः भगिनि।
पाठः पठतु कविता भगिनि।
ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते। ॐ शान्ति शान्ति शान्तिः। धन्यवादः भगिनि।
तिथि किं भगिनि?
अहं वदामि, अषाढ सूद बारस
शुक्ल पक्ष आयाति उत्तम बारस अस्ति उत्तम धन्यवाद भगिनि
नी सूद मतलब वी आर प्रोग्रेसिंग टुवर्ड्स पूनम
शुक्ल पक्ष
हाँ शुक्ल पक्ष सॉरी द अदर वन इज कृष्ण पक्ष ठीक है भगिनी
अस्तु धन्यवाद सर्वेभ्य नमो नमः
धन्यवादः भगिन्यौ
नमो नमः धन्यवादः सुधा भगिनी धन्यवादः गीतांजलि भगिनी प्रणाम